ओम
प्रत्यष्ट
पुनश्च
प्रत्यष्ट
आहरादेत्याः
रक्षसाम्
वहत्यै
अग्नेर्वस्ते
तिष्ठेण
तेजसा
निष्टपामेत्याह
मे
धत्वाय
चतुःसंवार्षे
सुमग्रे
पुमागुंसमेवाभ्यः
सर्गस्यति
विचलत्वाय
अथ
जुहोम्
अथोपभृतम्
अथ
ध्रुवाम्
असौ वै
जुहोः
अन्तरिक्षमुपभृत्
पृथिवेद्ध्रुवा
इमे
वै लोकास्रुतः
वृष्टिः
सम्मार्जनानि
वृष्टिर्वा
इमान्
लोकान्
पूर्वम्
कल्पयति
ते
तत्र क्लुप्ताः
समेधन्ते
समेधन्ते
स्वागिमे
लोकाः
प्रजयापशुभिः
यदेवम्
वेद
यदि
कामयदवर्षकः
पर्जन्यस्यादिति
अग्रतः
संवृज्यात्
वृष्टिमेव
नियच्छति
अवाचीनाः
ग्राहिवृष्टिः
यदि
कामयदावर्षकस्यादिति
भूमृतः
संवृज्यात्
वृष्टिमेवाव्यच्छति
तदुवा
आहुः
अग्रत
एवोपरिष्टात्
संवृज्यात्
मूलतोऽधस्तात्
तदनु
पूर्वम्
कल्पते
वर्षुका
भवतीति
प्राचीमभ्याकारम्
अग्रेरन्तरतः
एवमिव
ह्यन्न
मद्यते
अथो
अग्राद्वावोढधीनामोर्जम्
प्रजा
उपजीवन्ति
ओर्ज
एवान्नाद्यस्यावृद्ध्यै
अधस्तात्
प्रतीचे
दण्डमुत्तमतः
मूलेन
मूलम्
प्रतिष्ठित्यै
तस्मादरत्नौ
प्राणिपरिष्टाल्लोमानि
प्रत्यञ्चधस्तात्
सुर्घेः
प्राणो
वै स्तुभः
जुहोर्दक्षिणाहस्तः
उपभृत्सव्यः
आत्मा
ध्रुवा
अन्नकम्
सम्मार्जनानि
मुखतो
वै
प्राणापानो
भूत्वा
आत्मानमन्नम्
प्रविश्य
बाह्यतस्तनुवकम्
शुभयति
तस्मात्
श्रुवमेवाग्रे
सम्मार्ष्टे
मुखतो
हि प्राणापानो
भूत्वा
आत्मानमन्नमाविशति
नौ
प्राणापाणौ
अव्यर्थकप्राणापाणाभ्याम्
भवति
यगेवम्
वेद
दिवशिल्पमवदनम्
पृथिव्या
कृभिश्रुतम्
तेन
वयम्
सहस्रपलिशेन
सपत्नम्
नाशयामहि
स्वाहेति
सृक्सम्मार्जनान्यग्नौ
प्रहरे
आपो वे
दर्धाः
रूपमेवैषा
वेतन्महिमानम्
व्याजष्टे
अनुष्टुभच्च
आनुष्टुभः
प्रजापतिः
राजापत्यो
वेदः
हेनस्याग्रग्रस्वृक्सम्मार्जनानि
स्वेनैवैनानि
छन्दसा
स्वया
देवतया
समर्थयति
अथो
ऋग्वावयोषाः
गर्भवृषाः
अन्विषुनम्
विषुनमेवासृतज्ञे
करोति
प्रजननाय
प्रजायते
प्रजया
पशुभिर्यजमानः
तान्येके
पृथैवापास्यन्ति
तत्तथानकार्यम्
आरब्धस्त
यज्ञस्य
कर्मणः
सविदोहः
यज्ञेनानि
पशवाभितिष्ठेयुः
न तद्भ्यक्कम्
अभ्यर्माजित्वात्करेण्यस्य
यद्वै
यज्ञस्य
कर्मण्यत्राहुतेभ्यः
सन्तिष्ठते
उत्करो
वावदस्य
प्रतिष्ठा
एतागुम्भितस्मै
प्रतिष्ठान्
देवाः
समभरन्
यदभ्यर्मार्जयति
तेन
शान्तम्
यदुत्करेण्यस्य
प्रतिष्ठामेवैनानि
तद्गमयति
प्रतिष्ठति
प्रजया
पशुभिर्यजमानः
अथो
स्तम्भस्य
वा
एतद्रूपम्
यत्सृक्सम्मार्जनानि
स्तम्भसो
वा गोषधयः
तासाञ्चरत्रक्षेपशवो
नरमन्दे
अप्रियोक्षेताञ्जरत्रक्षः
यावदप्रियो
हवेजरत्रक्षः
पशूनाम्
तावदप्रियपशूनाम्
भवति
यस्येतान्यन्यत्राग्नेर्दधरे
नवदाव्यासु
वा वोढधेषु
पशवो
नरमन्दे
नवदावोक्रेताम्
प्रियः
यावत्प्रियो
हवेनवधावः
पशूनाम्
तावत्प्रियपशूनाम्
भवति
यस्येतान्यग्नौ
प्रहरन्ति
तस्मादेतान्यग्नावेव
प्रहरेत्
यतरस्मिन्
संवृज्यात्
पशूनाम्
धृत्यै
युवभूतानामधिपतिः
रुद्रस्तन्ति
चलोषाः
पशूनस्माकम्
माहिकंसेः
एतदस्तु
हुतन्तवस्वाहेत्यग्निसम्मार्जनान्यग्नौ
प्रहरति एतावादेतेधायोनिः एता प्रतिष्ठा स्वामेवैनानि योनिम् स्वाम् प्रतिष्ठाङ्गमयते प्रतिष्ठति प्रजयाजमानः अयज्ञो वा एषः एव पत्नीकः न प्रजा प्रजायेरन् पत्नीम् वा आसे यज्ञमेवागः प्रजानाम् प्रजननाय यत्तिष्ठन्ते सन्नह्येत प्रियम् ज्ञातिकम् रुन्ध्यात् आधीना सन्नह्यते आधीनाह्येदा वीर्यम् करोति यत्पश्चात्प्राच्यन्वासीत अनया समदन्दसीत देवानाम् पत्न्या समदन्दसीत देशाः दक्षिणदौदेच्यन्वास्ते आत्मनो गोपीच्छाय आशासानासौ मनसमित्याह मेऽध्यामेवैनाम् केवलीम् कृत्वा आशुषा समर्थयति अज्ञेर्णम् कृता भूत्पादन्नज्ञेषु कृता यजमित्याह एतद्वै पत्न्ये व्रतोपनयनम् तेनैवैनाम् व्रतमुपनयते तस्मादाहुः यश्चैवम् वेदयश्च न गोत्रमेवयुते यमन्वास्ते तस्यामुष्मिल्लोके भवति द्वियोक्त्रेण यद्योक्त्रम् प्रयोगः यदास्ते सक्षेमः योगक्षेमस्य कृत्यै युक्तम् क्रियाता आशेः कामे युज्याता इति आशिषसमृद्धे ग्रन्थिम् गृह्णाति आशिषमेवास्याम् परिगृह्णाति पुमानुरै ग्रन्थिः स्त्रीपत्रेः तन्मिथुनम् मिथुनमेवासृद्यज्ञे करोति प्रजननाय प्रजायते प्रजया पशुभिर्गजमानः अथो अर्धो वा एषः आत्मनः यत्पत्नेः यज्ञस्थिरद्याशिशिरम् भावाय सुप्रजतस्त्वामयम् सुपत्नेरुपसेतिमेत्याह यज्ञमेव तन्मिथुने करोति ऊनेऽतिरिक्तम् धीयातानि प्रजाद्ये महीनान्मयास्वधीनागुम्रस इत्याह रूपमेवास्यैतन्महिमानम् व्याजष्टे तस्य क्षीयमाणस्य निर्वपामि देव यज्ञाया इत्याह आशुषमेवैतामाशास्ते घृतम् च वै मधुज प्रजापजराधेत् कृतमध्वासेत् ततः प्रजा असृजत तस्मान्मसुज प्रचलनमिवास्ते तस्मान्मसुषा न प्रचलन्ति यातयामहि आज्य न प्रचलन्ति यज्ञो वा आज्यम् यज्ञेनैव यज्ञम् प्रचलन्ति यातयामत्वाय पत्न्यवेक्षते मिथुनत्वाय प्रजाद्ये यद्वै पत्नी यज्ञस्य करोति मिथुनम् तत् अथो पत्न्या एवेष यज्ञस्यान्वारम्भो न मच्छत्ये अमेध्यम् वा एतत्करोति यत्पत्न्यवेक्षते गार्हपत्यभिश्वेतिमेध्यत्वाय आहवनीयमभ्युद्रवते यज्ञस्य सन्दत्यै तेजोषितेजो न प्रेहेत्याह तेजो वा अग्निः तेजाज्यम् तेजसैव तेजः समर्थयति अग्निस्ते तेजो मापि नेदित्याहाहिगुंसायै यस्य मत्मन् साधयति यज्ञस्य सन्दत्ते अग्नेर्जिह्वादिशुभोर्देवानामित्याह यथा युजदेवैतत् धाम्ने देवेभ्योजुदे भवेत्याह आशिषमेवैतामाशास्ते तद्वादपवित्राभ्यामेवोत्पुनादि यजमानो वा आज्यम् प्राणापानो पवित्रेः यजमान एव प्राणापानो दधाति पुनराहारम् एवमिभिः प्राणापानौ सञ्चरतः शुक्रमशुज्योतिरसिते ज्योतेत्याह लोकमेवास्यैतन्महिमानम् व्याचष्टे त्रिव्यजुषा ते इमे लोकाः येषाम् लोकानामाप्तेः त्रियावृद्धियज्ञः अथो मेऽध्यत्वाय अथाज्यपतेभ्यामपः लोकमेवासा मे तद्वर्णम् दधाति अपि वा उदाहुः यथा हवैयोषा सुवर्णकम् हिरण्यम् पेषलम् बिभ्रते रूपाण्यास्ते एवमेता एतर्हेते आपो वै सर्वा देवताः एताय विश्वेदान् देवालान् धनोः यदाज्यम् तत्रोभयोर्मेवांसा जामि स्यात् यद्यजुषाज्ञयजुषापवत्पुनीयात् छन्दसापवत्पुनात्यजामित्वाय अथो मिथुनत्वाय
सामित्रियच्च सवितप्रसूतम् मे कर्म सदिति सवितप्रसूतमेवास्य कर्म भवति तच्छोकायत्रिया त्रिश्रमध्यत्वाय अभ्यदेवोषधे सन्नयति ओषधेषु पशून् पशुभिर्यजमानम् शुक्रन्ता शुक्रायाम् ज्योतिस्त्वा ज्योतिश्रत्यस्त्वाक्लेत्याहतर्भत्वाय पर्याप्त्यानन्तरायाय देवासुराः संयत्तासन् प्रयतमिन्द्राज्यस्यावकाशमपश्यत् तेनावैक्षत ततो देवाभवन् परासुराः एवम् विद्वानाज्यमपेक्षते भवत्यात्मनाः परास्यभ्यादुर्व्या भवति ब्रह्मवादिना वदन्ति यदाज्ये नान्यानि अवेगस्यभिघारयति अशयेनाज्यमिले सत्येनैर्ब्रूयात् चक्षुर्वै सत्यम् सत्येनैवेन तभिघारयते ईश्वरो वा येषोऽन्ध भवितोः यश्चक्षुषाज्यमवेक्षते निमेल्यावेक्षेत धाधारात्मम् चक्षुः अभ्यार्ज्यम् धारयते आर्ज्यम् गृह्णाति छन्दाकम् शिवार्ज्यम् छन्दाकस्येव प्रीणाति चतुर्जुह्वान् गृह्णाति चतुष्पादः पशवः पशूनेवावृन्धे अष्टावुपभृते अष्टाक्षरा गायत्री गायत्रः प्राणः प्राणमेव पशुर्दधाति चतुर्ध्रुवायाम् चतुष्पादः पशवः पशुष्वेवोपरिष्टात् प्रतिष्ठते यजमानदेवत्यावेजुः धातुर्यदेवत्योपभृते चतुर्जुह्वान् गृह्णन् भूयो गृह्णीयात् अष्टावुपभृति गृह्णन् गणीयः यजमानायैव भ्रातृव्यमस्तिम् करोति गौर्वै सुजः चतुर्जुह्वान् गृह्णाति तस्माच्चतुष्पदे अष्टावुपभृते तस्मादष्टाशभा चतुर्ध्रुवायाः तस्माच्चतुस्तना गामेव तत्सर्गस्करोति सात्मे सर्गस्कृते ढमोर्जन्देः यज्जुह्वान् गृह्णाति प्रयाजेभ्यस्तते यदुपभृते प्रयाजानो याजेभ्यस्तते सर्वस्मै वा एतद्विज्ञाय गृह्यते यद्ध्रुवायामाज्यम् आपो देवीरग्रेत्याः रूपमेवासामेतन्महिमानम् याजष्टे अग्रयमम् यज्ञम् नयताग्रे यज्ञपतिमित्याह अग्रयेव यज्ञम् नयन्ति अग्रे यज्ञपतिम् युष्मानिन्द्रो वृणेतवृत्रतोर्ये यूयमिन्द्रमणेध्वम् वृत्रतोर्य इत्याह वृत्रगुम्हरिष्यन्निन्द्रापो वव्रे आपोहेन्द्रम् वव्रे संज्ञामेवासामेतत्सामानम् व्याजष्टे प्रोक्षिताश्चेत्याह तेनापः प्रोक्षिताः अग्निर्देवेभ्यो निलायत कृष्णारूपम् कृत्वा स वनस्पतेन् प्राविशत् कृष्णास्याखरेष्ठोऽग्नये स्वाहेत्याह अग्नेरेवैनम् जुष्टम् करोति अथो अग्नेरेव मे समवरुन्धे वेदिनति बर्हिषे त्वा स्वाहेत्याह प्रजा वै बर्हिः पृथिवे वेदिः प्रजा एव पृथिव्याम् प्रतिष्ठापयति बर्हिरश्रुभ्यत्वा स्वाहेत्याह प्रजा वै बर्हिः यजमानसृजः यजमानमेव प्रजासु प्रतिष्ठापयति द्वे त्वान्तरिक्षायत्वा पृथिव्यैत्वेति बर्हिरासाद्य प्रोक्षति एभ्य एवैनम् लोकेभ्य प्रोक्षति सहस्रजा पुरस्ताः प्रत्यञ्जम् ग्रन्थिम् प्रत्युक्षते प्रजा वै बर्हिः यथा सोच्यै कालाः पुरस्ताद्यन्ते तादृगेव तत् सुधा पितृभ्यगित्याः सुधाकालोऽभिपितृणाम् ऊर्ध्वपरिहितभ्यगिचक्षिणायैश्वरणेरोत्तरस्य निर्णयति सन्ध्यत्यै मासा वै पितरापरिहितदः मासानेमत्रीनादे मासा वावोढधेर्वर्धयन्ते मासाः पचन्ति समृद्धे अनजस्कन्दरः वर्जन्या वर्षते यत्रेजदेवम् क्रियते ऊर्जा पृथिवीम् गच्छतेत्याह पृथिव्यामेवोर्जम् दधाति तस्मात् पृथिव्यावोर्जा भुञ्जते ग्रन्थिम् विस्तृगम् दयते प्रजनेत्येवजते ऊर्ध्वम् प्राञ्चमुद्गूढम् प्रत्यम् चमायच्छते तस्मात् प्राचीनगुम् रेतोऽधीयते प्रतीचेर प्रजा जायन्ते विष्णास्तोपोसेत्याह
यज्ञो वे विष्णुः यज्ञस्तृत्यैः पुरस्तात्मस्तरम् गृह्णाति मुख्यमेवैनम् करोति यन्तम् गृह्णाति प्रजापतिनायज्ञमुखेण संवितम् यन्तम् गृह्णाति यज्ञपुरुषा संवितम् यन्तम् गृह्णाति एतावद्वे पुरुषे वीर्यम् वीर्यसंवितम् अपरिमितम् गृह्णाति अपरिमितस्यावरुद्धे तस्मिन् पवित्रे अपि सृजति यजमानो वै प्रस्तरः प्राणापानो पवित्रे यजमानगेव प्राणापानो दधाति ओर्णाम् प्रसन्त्वास्तुनामेत्याह यथा यजुरेवेतत् श्वासस्थम् देवेभ्यैत्याह देवेभ्यगेवेयत्श्वासस्थम् करोति बर्हिस्तुनाति प्रजा वे बर्हिः पृथिवी वेदिः प्रजा एव पृथिव्याम् प्रतिष्ठापयति अनदृष्टग्यस्तृणाते प्रदेवेनम् पशुभिरणदृष्टम् करोति धारयन् प्रस्तरम् परिधेन् परिदधाति यजमानो वै प्रस्तरः यजमान एव तत्स्वयम् परिधेन् परिदधाति गन्धर्वोच विश्वावसुरित्याह विश्वमेवायजमाने दधाति इन्द्रस्य बाहुरधिदक्षिण इत्याह इन्द्रियमेव यजमाने दधाति मित्रावरुणोत्तोत्तरतः परिधत्तामित्याह प्राणापानो मित्रावरुणौ प्राणापानावेवास्मिन् दधाति सूर्यस्तापुरस्तात्वाश्रित्याह रक्षसामवहत्यै कस्याश्रिभिरस्यामित्याह अपरिमिता देवैनम् पादे बीजुहोक्रन्त्वाकवैत्याह अग्निमेव होत्रेण समर्थयति निमन्त्रकम् समिधे महेत्याह समिध्ये अग्ने बृहन्तमध्वरैत्याह वृद्ध्यैः विषोयन्त्रैश्चैत्याह विषाञ्जत्यैः उदीचीनाग्रेणधारि प्रतिष्ठित्ये असोनागम् रुद्राणामादित्यानागम् सदृशेत्याह देवतानामेव युदने प्रस्तरकम् साधयते जुहोरधृदाजेनाम् नेत्याह असो वे जुहोः अन्तरिक्षमुपृथिव पृथिवेद्धुवा तासामेतदेव प्रियन्नाम यद्धृदाजेति यद्धृदाजेत्याह प्रियणैवेनाम्ना साधयति एता असदान् सुकृतस्य लोक इत्याह सत्यम् वेदुकृतस्य लोकः सत्य एवैना सुकृतस्य लोके साधयते ता विष्णा पाहेत्याह यज्ञो वे विष्णः यज्ञस्तृत्यैः पाहियज्ञम् पाहियज्ञपतिम् पाहिमान् यज्ञनियमित्याह यज्ञा यजमानायात्मनेः एभ्य एवाश्रमासास्तेना आर्त्यै अग्निना वैहोत्राः देवासुरानभ्यभवन् अग्नयसमिध्यमानायानुब्रूहेत्याह भ्रातृव्याभिभूत्ये एकविंशतिमित्रदारूणि भवन्ति एकविपुंशो वे पुरुषः पुरुषस्याप्त्यैः पञ्चदशेऽध्वदारोण्यभ्यादशादे पञ्चदशवार्धमासस्य रात्रयः अर्धमासः संवत्सर आप्यते रेन्वर्धेन्परिदधाति ऊर्ध्वसमिथा वा दधाति अनुयाजेभ्यः समिषमजिषष्टे षट्सम्पद्यन्ते षड्वारतवः नूनेव प्रीणादि वेदेनोपवादेते राजापत्यो वे वेदः राजापत्यप्राणः यजमानाहवनीयः यजमान एव प्राणम् दधाति त्रिपवादेते प्रयो वे प्राणाः प्राणानेवास्मिन् दधाति वेदेन महत्कृष्ण प्राजापत्यमाघारमाघारयति यज्ञो वे प्रजापतिः यज्ञमेव प्रजापतिम् खल आरभते अथवा प्रजापतिः सर्वा देवताः सर्वा एव देवताः प्रीणाते अग्निमग्नेत्यस्तृसंवृद्धेत्याह प्रजावृद्धियज्ञः अथो रक्षतामपहद्ये वर्धेयम् सम्माष्टे पुनाद्देवेनान् तृष्टिस्सम्माष्टे प्रजावृद्धियज्ञः अथो मेऽध्यत्वाय अथो ये देवै देवाश्वाः देवाश्वानेव तत्सम्माष्टे स्वर्गस्य लोकस्य समग्रे आदीनान्यमाघारमाघारेते तिष्ठन्नन्यम् यथा नो वार्थम् वा इन्द्यात् एवमेव तदध्वर्यज्ञक्ते स्वर्गस्य लोकस्याद्योढ्ये वहन्तेन ग्राम्याः पशवः एवम् वेद भुवनमधिप्रथस्येत्याह
यज्ञावे भुवनम् यज्ञेव यजमानम् प्रजया पशुभिः प्रसेदे अग्नेयस्तरिदन्नमयित्याह अग्निर्वे देवानाञ्जष्टाः तस्मादेव नमस्करोति जुह्वेष्यग्निस्त्वाज्ञादेवयज्ञायाः आग्नेयैव जुहोः सावित्रिपथय ताभ्यामेवेन प्रसूतादत्ते अग्नाविष्णो मा वामनक्रमिषमित्याह अग्निः पुरस्ताद् विष्णुर्यज्ञः पश्चात् ताभ्यामेव प्रतिप्राच्यात्याक्रामते विहाथाम् मामासन्तार्थमित्याहिगुंसायै लोकम् मे लोककृतौ गुणतमित्याह आशितमेवैतामाशात् विष्णोस्थानमधेत्याह यज्ञा वे विष्णः एतत् खलु वै देवानामपराजितमायतनम् एतेज्ञः देवानामेवापराजित आयतने तिष्ठते इत इन्द्र अगणाद्वीर्यानेत्याह इन्द्रियमेव यजमाने दधाते समारभ्योऽर्ध्वाद्भरादिविश्वसमित्याह वृद्ध्यैः आधारमाधार्यमाणमनुसमारभ्य एतस्मिन् काले देवास्वर्गम् लोकमायन् साक्षादेव यजमानस्तु वर्गम् लोकमेदे अथो समर्थेनैव यज्ञेन यजमानस्तु वर्गम् लोकमेदे अकृतो यज्ञो यज्ञपतेरित्याहानार्थे इन्द्राभान् स्वाहेत्याह इन्द्रियमेव यजमाने दधाति बृहद्भा इत्याह स्वर्गो वे लोको बृहद्भाः स्वर्गस्य लोकस्य समष्टे यजमानदेवत्या वे युहोः भ्रातृव्यदेवत्योपभृते प्राणाधारः यत्सर्गस्पर्शयेत् भ्रातृव्यस्य प्राणम् दध्यात् असर्गस्पर्शयन् नत्याक्रामते यजमान एव प्राणम् दधाति पाहिमाग्नेदुश्चरितारामासुचरिते भजेत्याह अग्निर्वापवित्रम् वृजनमनुश्चरितम् ऋजुकर्मकम् सत्यगम् सुचरितम् अङ्गदेवैनम् वृजिनादृतादुश्चरितात्मादे ऋजुकर्मे सत्ये सुचरिते भजते तस्मादेवमाशास्ते आत्मना गोपेक्षाय शिरोवा एतद्यज्ञस्य यदाधारः आत्मा ध्रुवा आधारमाधार्य ध्रुवाकम् समनक्ते आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति समनक्ते गौहि प्राणापाणौ तदाहो तदेव समिन्ध्यात् तथा दुषितगिले शिरैवैतद्यज्ञस्य अथोत्रयाने प्राणाः प्राणानेवास्मिन् दधाति मनक्षिरोधम् ज्योतिषा ज्योतिरङ्गामित्याह ज्योतिरेवास्मापरिष्टाद् दधाति स्वर्गस्य लोकस्यानुख्याद्ये दृष्ट्या वा एतेऽन्यप्यन्ते यद्ब्रह्मा यद्भवता यदध्वर्युः यदग्नेत् यद्विजमानः तानिरन्तरेयात् यजमानस्य प्राणान् सङ्घर्षेत् प्रमायुगः स्यात् प्रोडाशमपकृत्य सञ्चरत्यध्वर्युः यजमानायैव लोकम् निरुन्धते नास्य प्राणान् सङ्घर्षते न प्रमायुगो भवति पुरस्तात् प्रत्यङ्गासीनः विजाया इदा मा दधाति अस्त्यागृह्मात्रे पशवो वा इदाः पशवः पुरुषः पशुष्टय पशून् प्रतिष्ठापयति विदायै वा एषा प्रजातिः ताम् प्रजातिम् यजमानो न प्रजायते द्विरङ्गुलावणद्यपर्वणाः द्विवात्रिजमानप्रतिष्ठित्यै सकृतवस्त्रिणादे विराधाते सकृतभिखारेते ततः सम्पद्यते तत्त्वानि वे पशवः प्रतिष्ठानानि यावानेव पशुः तमुपक्वयते मुखमिव प्रत्युपक्वयेत सम्मुखानेव पशोनुपक्वयते पशवो वायिनाः तस्मात्सान्वारभ्याः अध्वर्युणा च विजमाने च उपहोद पशुमानसानेत्याह वक्येण उपयते होदाः इदाये देवतानाम् भवे उपहोद पशुमान् भवति यदेवम् वेद याम् वेहस्यामिडा मा दधाति वाचस्ताभागधेयम् यामुपक्वयते प्राणानागुंसा वाचम् चैव प्राणागिष्टावरुन्धे अथवा एतत्युपहूतायामिडायाम् प्रोडासेव मे मागुंसा यजमानम् देवाब्रुवन् हविर्ना निर्वपेते नाहम् भागो निर्वप्स्यामेत्यब्रवीत् न मया भागयानुवक्षते विभागब्रवीत् नाहमभागापुराणभाग्या भविष्यामीति पुराणभाग्या नाहमभागा याज्या भविष्यामीति याज्या न मया भागेन भषट्करिष्यसेति भषट्कालः यद्यजमानभागम् निधाय पुरोणादम् परिहृतम् करोति तानेव तद्भागिनः करोति लुद्धा करोति तदस्वाविषः दिक्ष्वेव प्रतिगच्छति बहिरतम् करोति यजमानो वे पुरोणासः प्रजापरिः यजमानमेव प्रजासु प्रतिष्ठापयते तस्मादस्नान्याः प्रजा प्रतिष्ठन्ते मागुंसेनान्याः अथो कल्वासः दक्षिणा वा एताहविर्यज्ञस्यान्तर्वे जवरुध्यन्ते यत्पुरोणासम् परिहृतम् करोति श्रद्धा करोति चत्वारोक्येतेहविर्यज्ञस्य द्विजः ब्रह्मा होताध्वर्युलग्नेन तमभिषयेत् इदम् ब्रह्मणः इदम् होतः इदमध्वर्योः इदमग्ने शरिते यथैवाद सौम्येऽध्वरे आदेशमग्निभ्यो दक्षिणा नीयन्ते तादृगेव अग्निधे प्रथमाया दधाति अग्निमुखाख्यर्थिः अग्निमुखा मे वर्धिर्यजमानरुद्नोति सबिलुपस्तेर्यद्विरादशत् उपस्तेर्यद्विरभिषारयति षट्सम्पद्यन्ते षड्वारतवः ऋतो नैव प्रीणाति वेदेन ब्रह्मणे ब्रह्मभागम् परिहरति राजापत्यो वे वेदः राजापत्यो ब्रह्मा सविता यज्ञस्य प्रसोत्ये अधकामन्येन प्रदोहोत्रे मध्यम् वा एतद्यज्ञस्य यद्भवताः मध्यत एव यज्ञम् प्रीणादे असाध्वर्यवे दृष्टा वा एता यज्ञस्य एतद्धर्युः तस्माद्धर्वयज्ञस्यैतामेवावधमनो अन्या दक्षिणा नीयन्ते यज्ञस्य प्रतिष्ठत्ये अग्निमग्ने सगत्सगत्संवृद्धेत्याह परायवक्येतर्हि यज्ञः षितादेव्याहोदारयित्याह षितर्म क्रियते भद्रवाच्याय प्रेषितो मानुषस्योक्तवाकाय सोक्ता ब्रूहेत्याह आहुतमेवेतामाशास्ते स्वगादेव्याहोदर्भैत्याह यज्ञमेव तत्स्वगा करोति स्वस्तिर्मानुषेभ्यैत्याह आशुतमेवेतामाशास्ते संज्ञाब्रूहेत्याह संयमेव बार्हस्पत्यम् भागधेयेण समर्थयते अतस्तुजावनष्टुभ्याम् भाजवदेभ्याम् व्योहते प्रतिष्ठा वा नष्टुग अन्नम् वाजप्रतिष्ठित्यये अन्नाद्यस्यावरुध्यये राजेयम् जुहोमोहते जातानेव भ्रातुर्व्यान् प्रणुदते प्रदेचेमुभृतम् दृश्यमानानेव प्रतिनुदते सविषोज एवापोक्ष्यसपत्नान् यजमानः अस्मिन् लोके प्रतिष्ठते द्वाभ्याम् द्विप्रतिष्ठो हि चतुर्भ्यस्तारुद्रेभ्यस्तादित्येभ्यस्तेत्याह यथा यजुरेवेजत् सूक्ष्मप्रस्तरमणक्ते इमे वे लोकास्विजः यजमानप्रस्तरः यजमानमेव तेजसानक्ते त्वेषानक्ते त्वे इमे लोकाः एभ्य एवेनम् लोकेभ्योऽनक्ते अभिपूर्वमणक्ते अभिपूर्वमेव यजमानम् तेजसानक्ते अक्तगम् दिघानादित्याह तेजोवाज्यम् यजमानः प्रस्तरः यजमानमेव तेजसानक्ते प्रियम् द्वयेत्याह प्रययवीणम् कृत्वा स्वर्गम् लोकम् गमयते प्रजायो निर्माणवृक्षमित्याह प्रजाये गोपेशाय आप्यायम् तामापवोषधयैत्याह आपदेवोषधेराप्यायते मरुतामृतयस्थेत्याह मरुतो वे वृष्ट्यादीशय वृष्टिमेवावरुन्धे दिवङ्गच्छतदानावृष्टिमेवयेत्याह वृष्टिर्वेद्योः वृष्टिमेवावरुन्धे यावद्वाध्वर्यप्रस्तरम् ग्रहते तावदस्यायुर्मीयते आयुष्पाज्ञस्यायुर्मे बाहेत्याह आयुरेवात्मन्धत्ते यावद्वाध्वर्यप्रस्तरम् ग्रहते तावदस्य चक्षुष्पाग्ने चक्षुर्मे बाहेत्याह चक्षुरेवात्मन्धत्ते ध्रुवादीत्याः प्रतिष्ठित्ते यम् परिधिम् पर्यषच्छा इत्याह यथा विदुरेवैतत् अग्नेरेव मनुभिर्नीयमाण इत्याह अग्नेरेवेणञ्जुष्टम् करोति तन्तनेतमनजोषम् भरामेत्याह स जातानेवास्मानुगान् करोति नेतेषत्रजपजेतया इत्याहानुक्षाद्ये यज्ञस्य पाथ उपशमितमित्याह भूमानमेवोपैते परिधेन् प्रहरति यज्ञस्य समिष्ये सुतौ सम्प्रस्रावयते यदेव तत्र क्रूरम् तत्तेन शमयते जुह्वामुभृतम् यजमानदेवत्या वे जुहोः भ्रातृमदेवत्या भवत् यजमाना एव भ्रातृमिमपस्तिम् करोति सर्गस्रावभागाश्चेत्याह वसभावे रुद्राः इत्याः सर्गस्रावभागाः एकान्तद्भागधेयम् तानेव तेन प्रीणादि वैश्वदेव्यर्चाः एते हि विश्वे देवाः तृष्टग्भवति इन्द्रियम् वै तृष्टग् इन्द्रियमेव यजमाने दधाति अग्नेर्वामन्नग्रहयामीत्याह इयम् वा अग्निरपन्नग्रहः अस्यागेवेदादेते सुम्नाय सुम्नि सुम्नेनाधत्तमित्याह प्रजा मे पशवः सुम्नम् प्रजामेव पशूनात्मन्धत्ते धृधुर्योपादमित्याह यायापत्यार्गोपीठाय अग्नेदब्धायोषीततनो नित्याह यथा यजुरेवैतत् पाहि मार्गदिवः पाहि प्रसिद्धे पाहि दृष्टे पाहि दुरद्मन्ये पाहि दुष्करितादित्याः पाहिदमेवैतामाशास्ते अभिजन्नभिजङ्गमृतरायो निग्स्वाहेतीर्भसंवृत्तलान्यन्वाहाय फलीकरणहोमञ्जुहोति अतिरिक्तानि वायुभसंवृत्तलानि अतिरिक्ताः फलीकरणाः अतिरिक्तमाद्योच्छेदनम् अतिरिक्त एवातिरिक्तम् दधाति अथो अतिरिक्तेनैवातिरिक्तमात्मा वरुन्धे वेदद्देवेभ्यो निधायत ताम् वेदेनान्वविन्दन् वेदेन वेदुर्विविधपृथिवे सामपृथिवे पार्थिवानि गर्भम् विभर्ति भुवने स्पन्दः ततो यज्ञानि ते विश्वदानि पुरस्ताः वेदेन वेदविद्ये अथो यद्वेदश्च वेदश्च भवतः विशत्वाय प्रजाद्ये प्रजापतेर्वा एतानि श्मश्रूणि यद्वेदः पत्र्या उपस्थास्यते विचलमेव करोति विन्दते प्रजा वेदगुम्होताः वनीयात् यज्ञमेव तत्सन्तनात्योक्तरस्मादर्थमासात्तरमुत्तरेऽर्थमासालभते तरङ्गाले कालागते विदते ब्रह्मवादिना वदन्ते सत्त्वाहध्वर्यस्यात् यो यतो यज्ञम् प्रयुङ्क्ते अदेनम् प्रतिष्ठापयते वाताद्वाध्वर्ययज्ञम् प्रयुङ्क्ते देवागादविदो गातुम् विद्वा गातुमिदेत्याह यदेव यज्ञम् प्रयुङ्क्ते तदेनम् प्रतिष्ठापयते प्रतिष्ठति प्रदया पशुभिर्यजमानः यो वा यथा देवतम् यज्ञमुपचरति आ देवताभ्यो वृष्टते पापीयान् भवति यो यथा देवतम् न देवताभ्यावृष्टते वसीयान् भवति वारुणो वै पाशः इमम् विश्याम् वरुणस्य पाशमित्याह वरुणपाशा देवैनाम् मुञ्चते सविदप्रसोदो यथा देवतम् न देवताभ्यावृष्टते वसीयान् भवति धातुश्चयोनो सुविदस्य लोकैत्याह अग्निर्वै धाता पुण्यम् कर्म सुकृतस्य लोकः अग्निरेवैनाम् धाता पुण्यकर्मणि सुकृतस्य लोके दधाति श्रवणम् मे दहपत्या करोमीत्याह आत्मनश्च यजमानश्चे सन्ताय समायुशासम् प्रदयेत्याह आशुरमेवैतामाशास्ते पूर्णपात्रे अन्ततोऽष्टुभाः चतुष्पद्वाय रक्षन्धः प्रतिष्ठितम् रत्ने पूर्णपात्रे भवति अस्मिन् लोके प्रतिष्ठानीति अस्मिन्नेव लोके प्रतिष्ठते अथो वाग्वानुष्टुक वाङ्मिथुनम् आपोरेतः प्रजननम् एतस्मार्ते मिथुनात् विद्योतमानस्तनयन् वर्षते एतस्सिञ्चन् प्रजाप्रजनयन् यद्वै यज्ञस्य ब्रह्मणा युज्यते ब्रह्मणा वेदस्य विमोकः अभ्यश्रान्तिः विमुक्तम् वा वेदविहियोक्तम् ब्रह्मणा आदायेन प्रत्नीतः बहुगृह्णे देशान्त्यैः अञ्जलोपोहर्णपात्रमायते वेदगैवास्याम् प्रजाम् दधाति प्रजयादिमनुष्यः पूर्णः मुखम् विमृष्टे अवभृतस्यैव लोकम् कृत्वा तिष्ठति परिवेषो वा एष वनस्पतीनाम् यदुपवेदः एवम् वेद विन्दये परिवेष्टारम् अमुत्करे यम् देवा मनुष्येषु उपवेशमसारयन् ये आत्मदपदेशतः तानस्मभ्यमिहाकुरु उपवेशोपविड्भिनः प्रजाम् वृष्टिमशोधनम् द्विपदानश्चतुष्पदः ध्रुवान्नपगान् कुर्वति पुरस्तात् प्रत्यञ्चमुपगोहति तस्मात् पुरस्तात् प्रत्यञ्च शूद्रावश्यन्ति स्थलिमदुपगोहति अप्रतिपादिन एवैनाहम् कुर्ये धिष्ठिर्वा उपवेशः सुचर्तोवग्रा ब्रह्मनाशगुंसितः योपवेशेषु सामृक्षतिगन्धिष्मैते अथास्मेनामयुर्जप्रहरते निरमुन्नतमोकः समत्नाय प्रदन्यते निर्बाध्येन हविषाः इन्द्रयेणम्बराशरेत् इहि तिस्रः परावतः ईपञ्जननागुम्मते इहि तिस्रोजिरोजनायावत् सूर्यासद्दिवे परमान्तापरावतम् इन्द्रानयतवृत्रः यतो न पुनरायते शश्वतेभ्यः समाहाभ्यजते त्रिवृत्तारेण वज्रो ब्रह्मणाशिलः शैवैनम् विद्ध्वा येभ्यो लोकेभ्यो निर्नुद्या वज्रेण ब्रह्मणाश्रमते हतोषामधिष्ठामित्याहस्तृत्यै यम् दिश्यात्कन्ध्यायेत् सुशैवैनमर्पयते ॐ ब्रह्मणे ब्राह्मणमालभते क्षत्राय राजन्यम् मरुद्भ्यो वैश्यम् तमधे शूद्रम् तमधे तस्करम् नारकाय वीरहणम् आत्मने क्लीबम् आक्रयाय योगो कामाय बुग्गुष्ठलो अधिकृष्टाय मागधम् गीताय सूतम् वृत्ताय शैलूषम् धर्माय सुभागरम् धर्माय रेभम् नविष्ठाये भीमलम् असारकारिम् आनन्दाय स्त्रीशखम् प्रमुदे कुमारे पुत्रम् मेधाये रथकालम् धैर्याय तक्षाणम् श्रमाय गौलालम् मायायै कार्मारम् रूपाय मणिकारम् शुभे भवम् शरव्यायानिषुकारम् हेत्ये धन्वकारम् कर्मणे ज्यागारम् दुष्टाय रज्जुसर्गम् मृत्यवे मृगयम् अन्धकाय स्वनितम् संशये जारम् गेहायोपपतिम् निरृत्ये परिवित्तम् आर्द्रे परिविधानम् अराध्ये दिशोपदिम् पवित्राय भिरजम् प्रज्ञानाय नक्षत्रसदृशम् निष्कृत्ये पेदस्कारे बलायोपदाम् वर्णायानूर्धम् हरेभ्यः पौञ्चिष्टम् यक्षेकाभ्योनैषादम् पुरुषव्याघ्राय दुर्मदम् प्रियेभ्य उन्मक्तम् गन्धर्वाप्सराभ्यो भ्रात्यम् सर्पदेवविनयेभ्यो प्रतिपदम् अवेभ्यक्कितवम् व्यदाय अकितवम् शाचेभ्यो विदमकारम् यादुधानेभ्यः कण्डककारम् उत्साहेभ्यः कुब्जम् प्रमुदेवामनम् द्वाभ्यः श्रावम् स्वप्नायान्धम् अधर्माय पथिरम् संज्ञानाय स्मरकारे कामाद्याय पदकम् आशिक्षायै प्रश्निनम् उपशिक्षायाभिप्रश्निनम् मर्यादायै प्रश्नविभागम् वृत्त्यैस्तेन हृदयम् वैरहत्याय विशुनम् विवृत्ये क्षत्तारम् औपद्रष्टाय सङ्ग्रहेतारम् बलायानगरम् भोम्ने परिष्कन्दम् प्रियाय प्रियवादिनम् अयष्ट्याश्वसादम् मेधाय वासःपत्पूणे प्रकामाय रजयित्रीम् भायै दार्वाहारम् प्रभाय आग्नेन्धम् नागस्य पृष्ठायाभिषेक्तारम् रथस्य विष्टवाय पात्रनिर्णेकम् देवलोकाय प्रेषितारम् मनुष्यलोकाय प्रकटितारम् सर्वेभ्यो लोकेभ्य उपसेक्तारम् अवर्त्ये वधायापमन्थितारम् स्वर्गाय लोकाय भागदुःखम् परिशिष्टाय नागाय परिवेष्टारम् हर्मेभ्योऽस्तिपम् जवायाश्वम् पुष्टे गोपालम् तेजसेजपालम् वीर्याय विपालम् इलायै केनाशम् केनालाय दुराकारम् भद्राय गृहपम् श्रेयसे वित्तसम् अध्यक्षाय नक्षत्तारम् मन्यवेयस्तापम् क्रोधाय सदम् शोकायाभिसदम् उत्कूलविकूलाभ्याम् प्रस्थिनम् योगाय योक्तारम् क्षेमाय विवोक्तारम् उपक्षेमानस्कृतम् शीलायाञ्जलीकारम् निर्दिक्ते कोशकारीम् यमायासो यम्येयमसो असर्वभ्यावतोकाम् संवत्सराय पर्यारिणी परिवत्सराय विजाताम् इदावत्सराय पस्कद्वरे यद्वत्सरायातीत्वरे वत्सराय विसर्जराम् सर्वान्सराय फलिग्ने वनाय वनवम् अन्यतोरण्यायथापम् सराभ्योऽधैवरम् वेषन्ताभ्योदाशम् उपस्थावरेभ्योभैन्दम् नद्वलाभ्यः सौष्कलम् पार्याय देवर्तम् अवार्याय मार्गारम् तीर्थेभ्यन्दम् विषमेभ्यमेनालम् स्वरेभ्यः पर्णकम् गुहाभ्यः किरातम् स्थानभ्यो जम्भकम् पर्वतेभ्यः किम् पौरुषम् प्रतिश्रुत्यायाम् घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मूकम् महादेवेनावादम् क्रोशाय पूर्णवध्मम् आक्रन्दाय दन्तुभ्याघातम् अवरस्पराय सङ्खध्वम् त्रिभुभ्यो जनसन्धायम् साध्येभ्यः सर्वम्नम् बीभत्सायै पौर्कसम् भोक्ते जागरणम् अभोक्ते स्वभनम् तुलायैवानिजम् वर्णाय हिरण्यकारम् विश्वेभ्यो देवेभ्यः सिद्भरम् पश्चात् दोषाय ग्रामम् ऋत्येजनवादिनम् विरध्यावगल्भम् सकंसाय प्रशिवम् अथाय उद्विष्टलोबालभये वीणावालम् गणकम् गीताय यादशेषाबुल्या धर्माय भद्रवदे तोणरत्नङ्गामण्यम् पाणिसङ्घातम् नृत्ताय मोहायाकोशकम् आनन्दाय तलवम् अक्षरायाय तलम् कृताय तभाविनम् त्रेतायादिनवदशम् द्वापराय मयिस्वदम् कलयेभास्थानम् दुष्कृताय जलकाचार्यम् अध्वनेयम् ब्रह्मचारिणम् विषाजेभ्यस्यैलकम् व्यासायैको व्यच्छम् निरृत्येको घातम् क्षुधेको विकृत्तम् क्षुत्रष्टाभ्यान्तम् योगाम् विचन्दन्तम् भागुंसम् भिक्षमानोपतिष्ठते भूम्ये पीठसर्पिणमालभते अग्नयेकम् सलम् वायवे चाण्डालम् अन्तरिक्षाय वगुंशनात्तिनम् दिवेकलतिम् सूर्याय यक्षम् चन्द्रमसे निर्भिरम् नक्षत्रेभ्यः किदासम् अह्ने शुक्रम् पिङ्गलम् रात्रे कृष्णम् पिङ्गाक्षम् वाजे पुरुषमालभजे प्राणवानम् यानवदानिगुंसमानन्दानवायवे सूर्याय चक्षुरालभजे मनश्चन्द्रमसे दिग्भ्यश्रोत्रम् प्रजापतये पुरुषम् अधिकानुरूपेभ्यालभजे हरिहरसमधिदीर्घम् अधिकृषमत्यगुंसलम् अधिशुक्रमधिकृष्णम् अधिसुलक्ष्णमधिलोमसम् अधिकिरणमधिनन्दुरम् अधिमिर्मिरमधिमेभिषम् आशायै जामिन् प्रतीक्षायै कुमारी ओ